सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति चतुर्थी विभक्ति इति. तस्मिन् विषये गतवर्गे वयम् अभ्यासं कृतवन्तः, परिचयमपि ध्यातं. चतुर्थी विभक्तेः रूपाणि वयं ज्ञातवन्तः. तत्र रूपाणि कुत्र पुटसङ्ख्या 148 मध्ये दत्तानि सन्ति. एकवारं रूपाणां पुनस्मरणं कृत्वा अग्रे गच्छामः. तत्र रघुपतिमहोदय, तत्र देवशब्दस्य चतुर्थीविभक्तिरूपं
देवाय, देवाभ्यां, देवेभ्यः.
देवेभ्यः, हा, समीचीनं महोदय. बाणचेतनी महोदय, कविः इति अस्ति चेत् चतुर्थीविभक्तिरूपं
कवेः,
न कवये कविः अस्ति चेत्
कवे,
न पुटसङ्ख्या 148 149 मध्ये अस्ति खलु. तत्र गतवर्गे वयं कृतवन्तः इकारान्तपुल्लिङ्गशब्दः.
पुस्तकमहं पश्यामि महोदय, मम
अस्तु. तस्मिन् समये 149 कविः इति शब्दः अस्ति. तत्र रूपं किम् अस्ति चतुर्थीविभक्तिरूपं 149 मध्ये अकारान्तपुल्लिङ्ग देवः अस्ति चेत् देवाय, देवाभ्यां, देवेभ्यः. इकारान्तपुल्लिङ्ग अस्ति चेत् कवये, कविभ्यः. अस्तु. उमा भगिनी, तत्र भगिनी भवत्याः नाम उमा अथवा उमा मीनाक्षी?
किं
केवलम् उमा वा?
उमा, परन्तु नामद्वयम् अहं लिखामि, अन्यथा जनाः पृच्छन्ति उमा किम्.
अस्तु 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 भगिनि, अस्तु भगिनि, अस्तु. अहं न ज्ञातवान् यत् यदि तद् उमा अस्ति अथवा मीनाक्षी अस्ति अथवा उमा मीनाक्षी द्वयमपि इति. अस्तु, धन्यवादः भगिनि. अस्तु, उमा भगिनी, अतः तत्र वदतु, तत्र हरिः अस्ति चेत् चतुर्थीविभक्तिरूपं किं भवति?
कवि इव न?
हा, सत्यं.
क्षम्यतां, हरये हरिभ्यां हरिभ्यः.
हरये हरिभ्यां हरिभ्यः, समीचीनं भगिनि. अस्तु,
वदामि
सत्यं, समीचीनं यत् उक्तवती समीचीनमेव अस्ति. अस्तु, रघुपतिमहोदय, इदानीम् आकारन्ते स्त्रीलिङ्ग लता इति.
लतायै, लताभ्यां, लताभ्यः.
हा, लतायै, लताभ्यां, लताभ्यः. अस्तु, बाणचेतनी महोदय, इदानीं तत्र देवता अस्ति चेत् किं भवति?
देवतायै, देवताभ्यां, देवताभ्यः.
देवताभ्यः, समीचीनम्. अस्तु, उमा भगिनी, इदानीं तत्र देवता आसीत्, वीणा अस्ति चेत् किं भवति?
वीणायै, वीणाभ्यां, वीणाभ्यः.
वीणाभ्यः, अस्तु, समीचीनम्. हा, अन्तिमं तत्र नदी इति स्वीकुर्मः, तत् एकवारं कुर्मः. रघुपतिमहोदय, नदी अस्ति चेत्?
नदी, नदी अस्ति चेत् नद्यै, नदीभ्यां, नदीभ्यः.
नदीभ्यः, समीचीनं. भानुचेतनी महोदय, पार्वती अस्ति चेत्?
पार्वतीभ्यः.
अस्तु, उमा भगिनी, देवी अस्ति चेत्?
देव्यै, देवीभ्यां, देवीभ्यः.
देवीभ्यः, समीचीनम्. अस्तु अस्तु, तर्हि अतः तत्र किं प्रथमतया गृहपाठं कुर्मः वा अथवा कथां पठामः? किम् आलोचनं, कथां पठामः वा तदनन्तरं?
नपुंसकलिङ्गी शब्दानां तु न कृतवन्तः.
हा तत्र नपुंसकलिङ्गे कः भवति, किं भवति तत्र? पुल्लिङ्गवत् भवति तृतीया विभक्तितः, अतः केवलं प्रथमाविभक्तिरूपं द्वितीयविभक्तिरूपं तत्र भेदः भवति, किन्तु तृतीयविभक्ति आरभ्य पुल्लिङ्गवत् भवति. अतः वनम् अस्ति चेत् किं भवति? अकारन्त नपुंसकलिङ्गपदं वनं, देवः अकारन्त पुल्लिङ्गपदम्. अतः देवः किं भवति? देवाय देवाभ्यां देवेभ्यः. वनम् अस्ति चेत् वनेभ्यः. तावदेव
महोदय. अत्र स्मरणार्थम् एव यत्र अकारान्त अस्ति चेत्, ह्रस्व अकारान्त अस्ति चेत् तत्र द्वितीयविभक्ति द्वितीय द्विवचन अपि च बहुवचने दीर्घः भवति, परन्तु इकार ह्रस्व इकार उकार अस्ति चेत् तत्र दीर्घः न भवति इति अस्ति खलु द्विवचने बहुवचने. कवि कविभ्यां गुरु गुरुभ्यां तत्र यथा देवता देवताभ्याम् अथवा सोरि रामः रामाभ्याम् इति भवति, तत्र दीर्घः भवति. इकार उकार उकारस्ति चेत् स्मरणार्थं भ्रान्तिः.
सत्यं महोदय, सत्यं सत्यं महोदय, सत्यं सत्यम्. अकारान्ते द्विवचने दीर्घः भवति,
बहुवचने अपि
बहुवचने बहुवचने देवेभ्यः इति अस्ति.
सारी देवे तत्र न भवति. अस्तु तत्र न भवति.
किन्तु यदि इकारन्त उकारन्तश्चित् अस्ति चेत् तत्र ह्रस्वः एव भवति, कविभ्याम् अथवा गुरुभ्याम् कविभ्यः गुरुभ्यः. समीचीनं, सत्यं महोदय. हा सत्यमेव, समीचीनमस्ति महोदय. अस्तु, अन्यप्रश्न नो चेत् अग्रे एक तत् प्रथमतया कथां पठामः, तदनन्तरम् अन्यत् कुर्मः. अस्तु, तत् तर्हि तत्र परिवर्तनम् इति अस्ति. भानुचेतनी महोदय, भवान् गतवर्गे पृष्टवान् कथा भवतु इति, कथा आवश्यका इति पृष्टवान्, अतः एव अहं प्रेषितवान्. अस्तु, अतः भवान् एव आरम्भं करोतु परिवर्तनम् इति कथा.
महोदय, परिवर्तनं. कश्चन विशालः ग्रामः. कश्चन विशालः ग्रामः. तस्मिन् ग्रामे कश्चन भिक्षुकः आसीत्. सः उन्नतः दृढकायः च युवकः. तथापि सः भिक्षाटनं करोति स्म. मार्गे ये आगच्छन्ति तान् सः कथयति. भिक्षां यच्छत, दरिद्राय दानं कुरुत, पुण्यं भविष्यति, भगवान् युष्मभ्यां शतगुणितं पुण्यं दास्यति इति. भगवान् युष्मभ्यं शतगुणितं पुण्यं दास्यति इति. सर्वे जनाः तस्मै भिक्षुकाय भिक्षां यच्छन्ति स्म. एकदा तेन मार्गेण कश्चित् धनिकः आगतवान्. सः भिक्षुकः मनसि एव चिन्तितवान्, अहो मम भाग्यं, धनिकस्य आगमनं मम लाभाय एव अभवत्. अद्य अहं प्रभूतं धनं प्राप्नोमि इति. भिक्षुकः धनिकम् उक्तवान्, आर्य अहम् अतीवदरिद्रः अस्मि, मह्यं धनं ददातु इति. त्वं किम् इच्छसि? धनिकः तं पृष्टवान्, आर्य अहं प्रभूतं धनमिच्छामि. तदा धनिकः, अहं तुभ्यं 1000 रूप्यकाणि यच्छामि, त्वं मह्यं तव पादौ देहि इति उक्तवान्.
धन्यवादः महोदय, अग्रे. धन्यवादः महोदय, बहु समीचीनं. रघुपति महोदय अग्रे पठति वा?
आं महोदय. भिक्षुकः अवदत् कथम् अहं मम पादौ तुभ्यं ददामि, विना पादौ कथं वा चलामि इति. तुभ्यं 2000 रूप्यकाणि ददामि, मह्यं तव हस्तौ यच्च. तदा भिक्षुकः अपृच्छत् हस्ताभ्यं विना कथम् अहं भिक्षां स्वीकरोमि. धनिकः उक्तवान् अस्तु, भवान् 5000 रूप्यकाणि स्वीकुरु, नेत्रे मह्यं देहि. नेत्राभ्यां विहीनः अहं मम जीवनं कथं यापयामि. एवमेव धनिकः 1000 रूप्यकैः अनेकानि शरीरङ्गानि याचितवान्. सर्वेषामपि अङ्गानां दानं यदा भिक्षुकः निराकृतवान् तदा धनिकः उक्तवान्, पश्य मित्र, तव समीपे एव 1000 मूल्यानि वस्तूनि सन्ति, तथापि किमर्थं त्वम् आत्मानं दरिद्रं मन्यसे? त्वं न पङ्गुः, दुर्बलः, अन्धः वा? किमर्थं कार्यं न करोषि? किमर्थं वा त्वं स्वावलम्बी न भविष्यसि? सौभाग्येन एव वयम् एतत् मानवजन्म प्राप्तवन्तः. अस्य सफलतायै प्रयत्नं कुरु, इतः गच्छ, शुभं भवतु इति. तस्मात् दिनात् भिक्षुकः भिक्षाटनं त्यक्त्वा नूतनं जीवनम् आरब्धवान्. अतः एव प्राज्ञा वदन्ति, उल्लासं हि आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः. नास्ति उद्यमसमो बन्धुः, कृत्वा यं नावसीदति.
समीचीनं महोदय, धन्यवादः. हा अस्तु, इदानीं पङ्क्तिशः पश्यामः तत्र किं भानुचरी महोदय, पङ्क्तिशः किञ्चित् तत्र वदति वा किं किम् अस्ति इति?
आं महोदय.
प्रथमतया महोदय,
कश्चन विशालः ग्रामः अस्ति. तत्र तु प्रथमा विभक्तिः एव महोदय.
एव अस्ति, विशालः इति विशेषणं भवति ग्रामस्य.
महोदय,
तत्र कश्चन इत्युक्ते किं? कश्चन इत्युक्ते
कश्चन अव्ययं महोदय.
हा, तत्र नाम न जानीमः, किन्तु एकः ग्रामः अस्ति. कोऽपि ग्रामः न, एकमेव मनसि एकस्य ग्रामस्य चिन्तनं कुर्मः, अतः कश्चन इति वदामः, सर्टन् इति. हा अस्तु, अग्रे महोदय.
कश्चित् अपि भवति किल, खलु?
चित्छन समानं. चित्छन समानं.
तस्मिन् ग्रामे कश्चन भिक्षुकः आसीत् महोदय. भूतकाले वर्णितमस्ति एतत् ग्रामे इति. तस्मिन् अपि चतुर्थी विभक्ति महोदय.
चतुर्थी वा? सप्तमी महोदय. सप्तमी,
क्षम्यतां महोदय, सप्तमी
एव इष्टवान्, किन्तु चतुर्थी इति
अहं चिन्तयामि, किन्तु चतुर्थी इति वदामि.
अस्तु महोदय, चिन्ता मास्तु. हा अस्तु. हा, तस्मिन् ग्रामे
भिक्षुकः आसीत्.
तत्र तस्मिन् ग्रामे सः ग्रामः तद् भवति तस्मिन् ग्रामे सप्तमीविभक्तौ
महोदय. तस्मिन् विशालग्रामे,
विशाले ग्रामे,
सः उन्नतः, दृढकायः च युवकः.
सः इत्युक्ते कः?
सः भिक्षुकः.
भिक्षुकः, हा, सः भिक्षुकः उन्नतः.
तस्य गुणं किम् इति वर्णितम्. उन्नतः, दृढकायः च युवकः.
युवकः,
एतत् विशेषणानि महोदय.
युवकः अपि दृढकायः अपि
तथापि सः भिक्षाटनं करोति स्म. सः युवकः भिक्षाटनं द्वितीय विभक्ति महोदय.
हा कर्मपदं भिक्षाटनं
किं करोति? भिक्षाटनं करोति.
समीचीनं.
कः करोति? सः करोति.
समीचीनं महोदय.
तथा अपि महोदय मार्गे ये आगच्छन्ति तान् सः कथयति.
मार्गे ये आगच्छन्ति तान् इत्युक्ते यः यौ ये तत्र तान् इत्युक्ते किं? तान् युक्ते इत्युक्ते कान्?
मार्ग ये ये
हा ये आगच्छन्ति तान् तत्र यः सः इति प्रयोगः यः सः इति प्रयोगः जानीमः खलु. हा तदेव अत्र भवति.
भिक्षां यच्छत. कं यच्छत? भिक्षां यच्छत.
महोदय ध्वनिः आगच्छति महोदय तत्र ओ अस्तु हा अस्तु हा अस्तु समीचीनम् अस्तु हा वनचतुर् महोदय वदतु.
तत्र
यच्छत
दरिद्राय दानं कुरुत. दरिद्राय इति चतुर्थी विभक्ति महोदय.
हा समीचीनं. दरिद्रः
दरिद्राय दानं कुरुत.
हा इदानीं तत्र दरिद्राय इति स्थाने द्विवचने किं भवति?
द्विवचने
आभ्यां
दरिद्राभ्याम्
द्विवचने महोदय.
दरिद्राभ्याम् बहुवचने.
दरिद्रः दरिद्राय दरिद्राभ्यां दरिद्रेभ्यः.
हा समीचीनं. दरिद्रेभ्यः दरिद्राभ्यां दानं कुरुत. दरिद्रेभ्यः दानं कुरुत. हा किन्तु अत्र एकः एव अस्ति अतः दरिद्राय इति. समीचीनं महोदय. हा अग्रे
पुण्यं भविष्यति इति. किं भविष्यति? पुण्यं भविष्यति. महोदय कं भविष्यति वा किं भविष्यति वा महोदय?
किमेव किमेव किं भविष्यति प्रश्नः. तत्र यदि उत्तरं न जानीमः प्रश्नः तु सर्वदा नपुंसकलिङ्गे एकवचने एव भवति खलु.
आं महोदय.
हा अत्र अत्र किमर्थं कं भविष्यति इति साधु नास्ति? उत्तरं जानीमः पुण्यम् इति. किमर्थं कम् इति समीचीनं नास्ति? पुण्यम् इति नपुंसकलिङ्गे एव अस्ति, कर्तृपदम् अस्ति. अग्रे
भगवान् युष्मभ्यं शतगुणितं पुण्यं दास्यति. महोदय भगवान् प्रथम एकवचनं महोदय. कः
कर्तृपदं वा? कर्तृपदं वा एतत्? भगवान् इति कर्तृपदं वा?
कर्तृपदं.
हा क्रियापदं किम् अत्र? क्रियापदं किं?
दास्यति.
हा भगवान् दास्यति. किं दास्यति?
शतगुणितं पुण्यं.
हा शतगुणितं पुण्यं दास्यति. इदानीं प्रश्नः कः तत्र? अन्यप्रश्नः किं भवति?
युष्मभ्यं दास्यति.
हा कस्मै दास्यति? युष्मभ्यं दास्यति इति. समीचीनं महोदय. हा युष्मभ्यम् इति कस्य पदस्य चतुर्थीविभक्तिरूपम्?
युष्मात्.
युष्मत्. हा समीचीनं महोदय. त्वं युवां यूयं चतुर्थी विभक्तौ किं भवति? तुभ्यं तुभ्यम् अथवा ते
तुभ्यं ते युष्मभ्यं नौ युष्मान्नः
नः इति नौ नः इति तत्तु अस्मत् शब्दस्य भवति महोदय तुभ्यं युवाभ्यां युष्मभ्यं तुभ्यं युवाभ्यां युष्मभ्यं
तुभ्यं ते युवाभ्यां वां युष्मभ्यं वः
सत्यं महोदय युष्मभ्यं युष्मभ्यं शतगुणितं पुण्यं शतगुणितम् इत्युक्ते
शतगुणितं महोदय एक एकपुण्यं
गुणितम् इत्युक्ते गुणितम् इत्युक्ते मल्टिप्लैड् बै हण्ड्रेड् पुण्यं दास्यति इति सः कथयति कः कथयति भिक्षुकः अस्तु अग्रे
सर्वे जनाः तस्मै भिक्षुकाय भिक्षां यच्छन्ति स्म सर्वे जनाः कर्तृपदं बहुवचनं तस्मै तस्मै चतुर्थी विभक्ति महोदय कस्मै भिक्षुकाय तदपि रामाय इति चतुर्थी विभक्ति महोदय
तत्र किं भवति सः भिक्षुकः इति अस्ति चेत् तस्य चतुर्थीविभक्तिरूपं किं भवति सः भिक्षुकः चतुर्थीविभक्तिरूपं किं भवति
सः भिक्षुकः
तस्मै भिक्षुकाय खलु सः भिक्षुकः सः भिक्षुकः अस्ति तस्मै भिक्षुकाय इति भवति अतः तत्र तस्मै भिक्षुकाय इति दत्तमस्ति खलु महोदय भिक्षाम् इति किं यच्छन्ति कर्मपदं यच्छन्ति स्म अस्तु समीचीनं महोदय समीचीनम् अस्तु अग्रे उमा भगिनी पठति वा धन्यवादः उमा भगिनी पठति वा अग्रे
ओके किं करणीयं केवलं पठनीयं वा
पठित्वा किं किम् अवगच्छति इति वक्तव्यं प्रयत्नं करोतु चिन्ता मास्तु
एकदा तेन मार्गेण कश्चित् धनिकः आगतवान्
तत्र किं किम् अस्ति वाक्ये धनिकः इति कर्तृपदम् आगतवान् इति किं भवति विशेषणं भवति सः आगतवान् विशेषणम् आगतवान् अस्ति कश्चित् सर्टन् धनिकः इत्युक्ते
पुल्लिङ्गरूपं
धनिकः इत्युक्ते यस्य धनम् अस्ति
ओ यस्य धनम् अस्ति ओके
सः धनिकः अस्तु तेन मार्गेण इत्युक्ते
तृतीया
विभक्ति समीचीनं भगिनी मार्गः इत्युक्ते किं
मार्गः इत्युक्ते रोड्
किन्तु अत्र किं भवति तेन मार्गेण इत्युक्ते ग्रामः अस्ति खलु
कोऽपि भिक्षुकः
अस्ति तेन एव मार्गेण धनिकः आगच्छति समीचीनं भगिनि तेन एव मार्गेण अस्तु समीचीनं अस्तु अग्रे
सः भिक्षुकः मनसि एव चिन्तितवान्
किं चिन्तितवान् मनसि एव चिन्तितवान् इत्युक्ते सः न उक्तवान् केवलं मनसि चिन्तनम् अभवत् कीदृशचिन्तनम्
अहो मम भाग्यम्
इत्युक्ते
अद्य अहम् अधिकं धनं प्राप्स्यामि
इति तादृश मम भाग्यं बहु शुभदिनम् अस्ति अद्य इति किं भवति अग्रे
तस्य आगमनं मम लाभाय एव अभवत्
तत्र अभवत् इति क्रियापदं खलु. किम् अभवत्?
किम् अभवत्? धनिकः आगतवान्.
तत्र वाक्ये आगमनम् अभवत्.
ओ, आगमनम् अभवत्.
आगमनम् अभवत्. कस्य आगमनम् अभवत्?
धनिकस्य.
धनिकस्य आगमनम् अभवत्. कस्मै अभवत्? Why did this happen? किमर्थम् अभवत्? Why did this happen? मम लाभाय एव. लाभाय इति चतुर्थी विभक्ति खलु. लाभः, लाभाय, द्वितीय द्विवचने किं भवति?
लाभाभ्यां.
बहुवचने
लाभेभ्यः.
समीचीनं भगिनि. लाभेभ्यः अकारान्त अस्ति. लाभेभ्यः. समीचीनं भगिनि. एव अभवत्. अवगच्छति वा तद् वाक्यं?
फार्
मै बेनिफिट् ओन्लि. फार् मै बेनिफिट् ओन्लि.
परन्तु चतुर्थी, हौ डु यु प्रूव् दट् चतुर्थी ओवर् देर्?
तत्र कस्मै, किं प्रयोजनं, किमर्थं, फार् वाट्
रीज़न्,
किमर्थं, तत्र चतुर्थी भवति. किमर्थं? मम लाभाय इति.
अद्य अहं प्रभूतं धनं प्राप्नोमि इति.
तत्र प्राप्नोमि इति किं भवति? क्रियापदं.
क्रियापदं.
कर्तृपदं किम्?
अहम्.
अहम्. अहं प्राप्नोमि. प्राप्नोमि किं? प्राप्नोमि
धनम्.
धनं. कीदृशं धनं?
प्रभूतं धनं.
प्रभूतं
किञ्चित् न जानामि. प्रभूतम् इत्युक्ते अधिकं. लाट्स् आफ्.
लाट्स् आफ् इति. प्रभूतं धनं प्राप्नोमि. अद्य अहं प्रभूतं धनं प्राप्नोमि इति इति अस्ति. तत् इत्युक्ते किम्? इति चिन्तितवान् सः.
भिक्षुकः चिन्तितवान्.
अस्तु, धन्यवादः भगिनि. समीचीनमस्ति. सूर्यकुमारी भगिनी, नमस्कारः.
नमस्कारः.
नमस्कारः भगिनि. नमस्कारः भगिनि. अस्तु, तत्र कथां पठन् स्मः, परिवर्तनमिति. अस्तु, अग्रे रघुपति महोदय वदति वा तत्र.
महोदय, मह्यं त्वं ततः न किल
भिक्षुकः धनिकं.
अस्तु, भिक्षुकः धनिकम् उक्तवान्, आर्य, अहम् अतीव दरिद्रः अस्मि, मह्यं धनं ददातु इति. भिक्षुकः उक्तवान् धनिकम् इति. उक्तवान् धनिकम् इति कर्मपदम्. उक्तवान् इति धनिकम् उक्तवान् भिक्षुकः इति. भिक्षुकः
कर्तृपदम्
अस्ति. आर्य सम्बोधना. अहम् अतीव दरिद्रः अस्मि. अहमस्मि दरिद्रः अस्मि. अतीव दरिद्रः अस्मि इति विशेषणमस्ति. मह्यम् अत्र मह्यं धनं ददातु इति. ददातु अस्ति. मह्यं, मह्यम् इति चतुर्थी विभक्ति. मह्यं, मह्यं
तत्र किं ददाति अथवा यत्र दानं भवति अथवा यच्छति तत्र वयं जानीमः तत्र चतुर्थी विभक्ति भवति इति.
मह्यं,
मह्यम् इति किं रूपं? मह्यम् अस्ति
चतुर्थी. चतुर्थी भक्ति
अस्मच्छब्दस्य.
अस्मच्छब्दस्य एकनिमिषं. तत्र द्विवचनमस्ति. मह्यं किमस्ति महोदय? विस्मृतवान्. मह्यभ्यां भवति वा? आवाभ्याम्. अस्तु अस्तु, आवाम् अस्ति खलु.
आवाभ्याम् अस्मभ्यम्.
अहम् अस्तु, आवाभ्याम् अस्मभ्यम्. अस्मि आवाम् अस्मभ्यम्. अस्तु, अस्मभ्यम्.
अस्मभ्यम्
अस्तु. ददातु इति. ददातु इति लोट्लकारे अस्ति.
लोट्लकारे तत्र ददातु इति पुरुषः कः?
ददातु. ददातु पुरुष, पुरुष मध्ये
एकवचन.
ददातु एकवचन.
एकवचन किन्तु प्रथमपुरुषः.
ददातु प्रथमपुरुषः.
ददातु भवान्. ददातु
प्रथमपुरुषः. भवान् ददातु.
भवान् ददातु इति समीचीनम्.
एकवचनं प्रथमपुरुषः.
अग्रे
त्वं किम् इच्छसि? धनिकः तं पृष्टवान् त्वं मध्यमपुरुष एकवचनम् अस्ति किम् इच्छसि इति अस्ति अतः त्वम् इच्छसि किम् इच्छसि धनिकः पृष्टवान् धनिकः पृष्टवान्
तं पृष्टवान् तम् इत्युक्ते
तं कर्म कर्मपद अस्ति तं पृष्टवान् इति
किन्तु तम् इति कं
तं भिक्षुकं
तं भिक्षुकं तं भिक्षुकं पृष्टवान् समीचीनं
आर्य अहं प्रभूतं धनम् इच्छामि आर्यसम्बोधन अहं धनम् अहम् इच्छामि किमिच्छामि धनम् इच्छामि कीदृशं धनं प्रभूतं धनम् इति
समीचीनं महोदय अग्रे
तत्र एकनिमिषं महोदय तदा तदा धनिकः अहं तुभ्यं सहस्रं रूप्यकाणि यच्छामि अहं यच्छामि अहं तु कस्मै
अहं किं किं यच्छामि इति प्रथमतया
किं किं यच्छामि कर्म रूप्यकाणि रूप्यकाणि यच्छामि सहस्रं रूप्यकाणि यच्छामि कस्मै तुभ्यं यच्छामि
तुभ्यम्
इति चतुर्थी विभक्ति
यच्छामि समीचीनं
तुभ्यम् एकनिमिषं महोदय तुभ्यं तस्य तुभ्यं
युष्मभ्यं दृष्टवन्तः युवाभ्यं
युवाभ्याम् अस्तु
तुभ्यं युवाभ्यां युष्मभ्यं
युष्मभ्यम् अस्तु अस्तु त्वं मह्यं तव पादौ देहि इति देहि त्वं देहि देहि इति लोट्लकारे मध्यमपुरुषे एकवचनमस्ति
सत्यं महोदय देहि किं देहि
पादौ देहि कस्य तव पादौ
तत्र पादौ इति वचनं
द्विवचने
द्विवचने
अवाभ्यम् अस्मभ्यम् अस्तु इति उक्तवान् भिक्षुकः अवदत् कथम् अहं मम पादौ तुभ्यं ददामि भिक्षुकः अवदत् इति लङ्लकारः अस्ति भिक्षुकः अवदत् कथम् अहं मम पादौ तुभ्यं ददामि तुभ्यम् इति कथं ददामि कथम् एकनिमिषं ददामि अहं ददामि अस्तु तुभ्यं ददामि
किं ददामि
मम पादौ तुभ्यं ददामि मम पादौ तुभ्यं ददामि तत्र चतुर्थी विभक्ति तुभ्यं तुभ्यं युवाभ्यां तत्र जमः भवति तुभ्यं द्वितीय द्विवचने महोदय
युष्मभ्यं
युष्मभ्यं तुभ्यं युवाभ्यं युष्मभ्यं विना पादौ कथं वा चलामि इति विना पादौ अस्तु विना प्रयोगः अस्ति तत्र विना पादौ कथं वा चलामि इति अहं चलामि इति उत्तमपुरुषे एकवचनम् अस्ति कथं वा चलामि इति वदति तुभ्यम् अग्रे तुभ्यं द्विसहस्रं रूप्यकाणि ददामि मह्यं तव हस्तौ यच्च अत्र तुभ्यम् इति चतुर्थी भक्ति तुभ्यं ददामि रूप्यकाणि ददामि द्विसहस्रं रूप्यकाणि ददामि इति अस्ति मह्यम् इति अस्मच्छब्दः अस्ति चतुर्थी भक्ति मह्यं मह्यम् इति तत्रापि आवाभ्याम अस्मभ्यम् तव हस्तौ यच्च इति द्विवचन हस्तौ यच्च इति मध्यमपुरुष एकवचन लोट्लकार
तत्र महोदय तत्र भिक्षुकः तत्र धनिकः तु भिक्षुकं मध्यमपुरुषरूपेण सम्भाषणं करोति खलु त्वम् इति वदामि किन्तु भिक्षुकः तत्र ददातु इति प्रथमतया उक्तवान् खलु भिक्षुकः धनिकम् उक्तवान् मह्यं धनं ददातु इति तत्र तु किम् आसीत् ददातु इति तु उत्तमपुरुष तत्र प्रथमपुरुषः एकवचनं भवान् ददातु इति खलु पूर्वे रघुपतिमहोदय रघुपतिमहोदय तत्र भिक्षुकः प्रथमवारं सः किं कृतवान् धनिकं धनिकेन सम्भाषणसमये सः किम् उक्तवान् मह्यं धनं ददातु इति तत्र तु प्रथमपुरुष एकवचनरूपं खलु भवान् ददातु भवान् ददातु इति अस्ति किन्तु इदानीं तत्र भिक्षुकः किम् अवदत् पादौ तुभ्यं ददामि इति अस्ति इदानीं तत्र त्वम् इति अभवत् खलु अतः तत्र त्वम् इति स्थाने भवान् इति आसीत् चेत् किं भवति
भवान् इति अस्ति चेत् भवान् इति चेत्
भवते भवते इति भवति
भवति अस्तु
भवते इति
भवति
तत्र कथम् अहं मम पादौ भवते ददामि
भवते ददामि
इति अस्तु अग्रे महोदय तदा तत्र
अपृच्छत् इति अस्ति अपृच्छत् इति लङ्लकाररूपमस्ति भिक्षुकः अपृच्छत् कदा तदा हस्ताभ्यां विना कथम् अहं भिक्षां स्वीकरोमि इति हस्ताभ्यां विना इति तृतीयविभक् हस्ताभ्यां द्विवचनम् अस्ति विना इति
तदेव रूपं चतुर्थीविभक्तौ अपि अस्ति किन्तु विना इति अस्ति इति कृत्वा तृतीयविभक्तिरूपम् इति जानीमः समीचीनं
कथम् अहं भिक्षां स्वीकरोमि इति उत्तमपुरुषे एकवचनम् अस्ति भिक्षां स्वीकरोमि कर्मपदमस्ति अहं स्वीकरोमि भिक्षां स्वीकरोमि इति
भिक्षाम् इति कर्मपदं
कर्मपदं धनिकः उक्तवान् धनिकः उक्तवान् इति अस्ति विशेषणमस्ति उक्तवान् धनिकः उक्तवान् अस्ति इदानीम् अस्तु भवान् 5,000 रूप्यकाणि स्वीकुरु नेत्रे मह्यं देहि भवान् 5,000 रूप्यकाणि स्वीकुरु इति किं भवति प्रथम सारि प्रथमपुरुषे एव भवति वा लोट्लकारे स्वीकुरु इति लोट्
हा कुरु कुरु इति अहं चिन्तयामि महोदय
लोट्लकारे अस्ति खलु महोदय
हा करोतु इति प्रथम पुरुषः मध्यमपुरुषः कुरु त्वं कुरु
त्वं स्वीकुरु अत्र भवान् अस्ति
ओ भवान् आमामामां क्षम्यतां भवान्
किञ्चित् भ्रमः भवति
हा 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 सत्यं सत्यं स्वीकुरु
करोति लोट्लकारं
सत्यं सत्यं किन्तु स्वीकुरु इति अहं चिन्तयामि महोदय तत्र स्वीकुरु इति
स्वीकुरु इति तत्र किमपि स्वीकुरु
रूपं पश्यामः महोदय अग्रे
त्वं तु रूप्यकाणि स्वीकुरु 5,000 नेत्रे अपि द्विवचनम् अस्ति नेत्रे मह्यं देहि नेत्रे मह्यं देहि इति मह्यम् इति चतुर्थी विभक्ति मह्यं देहि इति लोट्लकारे सोरि मध्यमपुरुषे एकवचनमस्ति देहि मह्यं देहि इति
समीचीनं महोदय अस्तु हा मह्यं देहि अस्तु इदानीं तत्र सूर्यकुमारी भगिनी किञ्चित् पठति वा तत्र
नेत्राभ्यां हीनः अहं मम जीवनं कथं यापयामि इति भिक्षुकः अवदत् नेत्राभ्यां चतुर्थीविभक्ति द्विवचनं विहीनः एकवचनं प्रथमाविभक्तिः अहं उत्तमपुरुष एकवचनं मम जीवनं कथं यापयामि यापयामि क्रियापदम् उत्तमपुरुष एकवचनं
अहं यापयामि किं यापयामि
जीवनं
हा मम जीवनं हा यापयामि कथं हा वदतु महोदय
अत्र लोट्लकार स्वीकुरु इति मध्यपुरुषे अस्ति परन्तु अत्र भवान् प्रयुक्तमस्ति अतः स्वीकरोति इति एव समीचीनम् अहं न जानामि भवान् मध्यपुरुषे अपि योजितुं शक्यते वा इति यथा
तत्र
परन्तु भवान् यथा अहं
भवान्
प्रथमपुरुषे एव भवति इति यद्यपि तत् मध्यपुरुषवत् अस्ति तस्य अर्थः परन्तु प्रथमपुरुषे एव भवति खलु
भवान्
न मध्यमपुरुषे अपि लोट्लकार अस्ति
त्वं कुरु इति भवति
स्वीकुर्याम् अहं दृष्ट्वा इदानीं वदनस्मि लोट्लकारे स्वीकुरु इति अस्ति स्वीकुरु अथवा स्वीकुरुतात् स्वीकरोतु स्वीकुरुतात् इति प्रथमपुरुषे भवति
भवतु लैक् कुरु
भवतु अपि कुरु समानं नास्ति भगिनि न न भव भव इति मध्यमपुरुषरूपम् अस्ति अस्तु हा अस्तु भगिनि महोदय तत्र न जानीमः किमर्थं तत्र भवान् इति अस्ति अत्र प्रायशः यतः धनिकः पूर्वं त्वम् इति एव उक्तवान् खलु सर्वत्र किमर्थम् अत्र भवान् इति
भवान् इति सर्वदा मध्यपुरुषे एव मध्यपुरुषवत् अस्ति न तस्य अर्थः
अतः अतः तादृशं प्रायशः तादृशमेव भवति महोदय सत्यं सत्यं तत्र किन्तु तद् जानीमः तत्र
व्याकरणरीत्या
प्रथमपुरुषः एव
स्वीकरोतु
सत्यं अस्तु अस्तु धन्यवादः महोदय अस्तु भगिनि अग्रे
एवमेव एवमेव धनिकः सहस्राधिकैः रूप्यकैः अनेकानि शरीराङ्गानि
शरीराङ्गानि
याचितवान्
शरीरस्य अङ्गानि
याचितवान् याचितवान् क्रियापदं भूतकाले
सूचयतु भूतकालरूपं याचितवान्
सहस्राधिकैः धनिकः सहस्राधिकैः
तत्र भगिनि एतत् पश्यामः कर्तृपदं किं तत्र कर्तृपदं किं क्रियापदं किं
क्रियापदं याचितवान्
याचितवान् याचितवान् इति क्रियापदं याचितवान् अस्ति इति अस्तु कः याचितवान् धनिकः याचितवान् अस्ति अस्तु किं याचितवान् धनिकः किं याचितवान्
अनेकानि शरीराङ्गानि
अनेकानि शरीराङ्गानि याचितवान् यथा सः किं पूर्वं किं याचितवान् तव हस्तौ यच्छ इदानीम् अथवा मह्यं नेत्रे मह्यं देहि नेत्रे याचितवान् अपि हस्तौ याचितवान् पादौ याचितवान् तादृशमेव सः किं कृतवान् अनेकानि शरीराङ्गानि याचितवान् कस्य शरीराङ्गानि भिक्षुकस्य शरीराङ्गानि धनिकः याचितवान्
केन
याचितवान् केन याचितवान्
सहस्राधिकैः
रूप्यकैः याचितवान् अहं सहस्रं द्विसहस्रं पञ्चसहस्रं रूप्यकाणि दास्यामि तुभ्यं दास्यामि भवान् मह्यं एतद् अङ्गम् अथवा शरीराङ्गम् अथवा अन्यत् अङ्गं मह्यं ददातु इति सः अनेकानि शरीराङ्गानि भिक्षुकस्य शरीराङ्गानि याचितवान् हा अस्तु भगिनि अग्रे
सर्वेषामपि अङ्गानां स्थानं यथा भिक्षुकः निराकृतवान्
हा तावत् तावदेव हा निराकृतवान् निराकृतवान् इत्युक्ते किं
न इच्छति
हा न इष्टवान् मास्तु इति उक्तवान् मास्तु इति उक्तवान् निराकृतवान् कः निराकृतवान्
भिक्षुकः
भिक्षुकः किं निराकृतवान्
सर्वेषाम् अङ्गानाम्
अङ्गानाम् अङ्गा किं
दानं
हा दानं निराकृतवान् भिक्षुकः दानं निराकृतवान् अहं न दास्यामि इति सः चिन्तितवान् खलु हा दानं निराकृतवान् कस्य दानं निराकृतवान् हा अङ्गानां दानं भिक्षुकः निराकृतवान् कीदृशाङ्गम् सर्वेषाम् अङ्गानां सर्वे अङ्गाः तेषां दानं सः किम् अस्तु पादौ ददामि इति न चिन्तितवान् हस्तौ न ददामि किन्तु पादौ ददामि इति तादृश चिन्तनं नासीत् खलु पादौ भवतु हस्तौ भवतु नेत्रे भवतु सः किमपि अङ्गं कस्यापि अङ्गस्य दानं कर्तुं सः न सिद्धः खलु हा अतः सः सर्वेषामपि अङ्गानां दानं निराकृतवान् यदा सः एतत् कृतवान् तदा किं भवति
धनिकः उक्तवान्
हा तदा धनिकः उक्तवान् कदा सर्वस्य सर्वेषाम् अङ्गानां दानम् इदानीं निराकृतं दानं किं कस्यापि दानं न भवति इति निर्णीतम् अस्ति इदानीं भिक्षुकः अहं किमपि न दास्यामि इति कस्यापि अङ्गस्य दानं न करोमि इति सः उक्तवान् तदनन्तरं धनिकः किम् उक्तवान् इदानीं
पश्य मित्र तव समीपे एव सहस्राधिकमूल्यकानि मूल्यकानि वस्तूनि सन्ति
हा इत्युक्ते
सर्वे
सन्ति सन्ति इति सन्ति इति क्रियापदं
सर्वे
किं सन्ति अथवा कानि सन्ति
अङ्गानि
हा वस्तूनि सन्ति अङ्गानि अत्र अङ्गानि सन्ति हा कीदृशानि वस्तूनि हा सहस्राधिकमूल्यकानि वस्तूनि सहस्राधिकमूल्यकानि इत्युक्ते किं
सहस्राणि
न सहस्राधिकमूल्यकानि
मूल्यकानि
तत्र अङ्ग सहस्रङ्गः इति चिन्तनं न मूल्यकम् इत्युक्ते
सहस्राधिक
न न मूल्यकम् इत्युक्ते केवलं मूल्यकम् इत्युक्ते किं
मूल्यकं
आङ्ग्लभाषायां वदतु मूल्यकं हा मूल्यकं हा समीचीनं तत्र सहस्राधिकमूल्यकानि इत्युक्ते न केवलं सहस्राधिकमूल्यकानि इति पदस्य अर्थः कः मूल्यकं कीदृशम् अस्ति सहस्राधिकमूल्यकं हा अत्र तत्र किं सहस्रं मूल्यकं सहस्रम् अस्ति वा न सहस्रस्य अधिकम् अस्ति मूल्यं मूल्यकम् अस्ति तादृशवस्तूनि सन्ति कुत्र कुत्र सन्ति
वस्तूनि पादौ हस्तौ
हा हा कुत्र सन्ति हा एतत् सर्वं कुत्र सन्ति एतानि वस्तूनि भिक्षुकस्य समीपे भिक्षुके अथवा भिक्षुकस्य समीपे अतः तव समीपे एव सहस्राधिकमूल्यकानि वस्तूनि सन्ति अवगतं खलु भगिनि अग्रे इदानीं
तथापि किमर्थं
तथापि
आत्मानं दरिद्रं मन्यसे धनिकः वद किं दरिद्रम् उच्च
तथापि तथापि तत्र क्रियापदं क्रियापदं प्रश्ने क्रियापदं किम् अस्ति
प्रश्ने
मन्यसे
मध्यमपुरुष एकवचनं
अहं मन्ये
आत्मनेपदे
त्वं मन्यसे त्वं मन्यसे किं मन्यसे
दरिद्रम्
आत्मानं दरिद्रम् इति किम् इति मन्यसे आत्मानं दरिद्रम् इत्युक्ते किम्
आत्मानं दरिद्रम्
दरिद्रं जानाति खलु भगिनि आत्मानं दरिद्रम् इत्युक्ते मनसि न
आत्मानम्
Yourself इति अर्थे Why do you think of yourself इति त्वम् आत्मानं दरिद्रं मन्यसे किमर्थम् आत्मानं yourself Why do you think of yourself as दरिद्रः किमर्थं त्वम् आत्मानं दरिद्रं मन्यसे तथापि तथापि इत्युक्ते अत्र अनेकानि सहस्राधिकमूल्यकानि वस्तूनि सन्ति तव समीपे किन्तु भवान् किं चिन्तयति भवान् अहं दरिद्रः इति मन्यसे त्वं मन्यसे किमर्थम् अग्रे त्वं
न पङ्गुः
पङ्गुः इत्युक्ते
अन्धः
वा पङ्गुः इत्युक्ते
पङ्गुः
लेम् लेम् हा पङ्गुः इति लेम् हा
लेम् दुर्बलः बलहीनः
बलहीनः
अन्धः नेत्र
विहीनः नास्ति
वा
त्वं न अन्धः त्वं न पङ्गुः त्वं न दुर्बलः अस्ति अतः कारणं किमपि नास्ति अहं दरिद्रः इति चिन्तितुं कारणं चिन्तनं कर्तुं कारणमेव नास्ति तत्र किमर्थं
कार्यं न करोषि
किमपि कार्यं कर्तुं शक्नोति भवान् दुर्बलः नास्ति अन्धः नास्ति पङ्गुः नास्ति कार्यं कर्तुं शक्नोति त्वं शक्नोषि किमर्थं कार्यं न करोषि करोषि समीचीनं भगिनि अग्रे
किमर्थं वा त्वं स्वावलम्बी न भविष्यसि
स्वावलम्बी इत्युक्ते अवलम्बनम् अवलम्बनम् इत्युक्ते अवलम्बी अवलम्बी स्वावलम्बी
तदेव
तत्र रघुपतिमहोदय वदति वा स्वावलम्बी इत्युक्ते किम् इति
स्वावलम्बी इत्युक्ते इण्डिपेण्डेण्ट् अवलम्बनं
स्वस्य अवलम्बनं डिपेण्ड् आन् सेल्फ् डिपेण्डेण्ट् सेल्फ् डिपेण्डेण्ट् अवलम्बनं तत्र करावलम्बम् इति स्तोत्रं प्रसिद्धस्तोत्रम् अस्ति खलु स्वावलम्बी अवलम्बी सपोर्ट् अथवा डिपेण्ड् स्वावलम्बी न भविष्यसि
भविष्यत्काल मध्यमपुरुषे एकवचनं
हा समीचीनं भगिनि हा समीचीनं हा अग्रे
सौभाग्येन एव वयम् एतत् मानवजन्म प्राप्तवन्तः वयं
प्राप्तवन्तः किं प्राप्तवन्तः
मानवजन्म
मानवजन्म हा तत्र जन्म इति विभक्ति का
मानवजन्म एकवचनम्
एकवचने सत्यं हा मानवजन्म एकवचने अस्ति विभक्ति का तत्र
प्रथमविभक्तिः
प्राप्तवन्तः तत्र कः प्राप्तवन्तः
वयं
वयं कर्तृपदम् अस्ति कर्तृपदं वयम् अतः तदेव
प्रथमविभक्ति
कर्मपदम् अस्ति एतद् मानवजन्म तत्र जन्मन् इति नकारान्तपदम् अस्ति नपुंसकलिङ्गे अतः जन्म इति प्रथमा विभक्ति अपि द्वितीयविभक्तिरूपम् अस्ति केन सौभाग्येन सौभाग्येन एव एतत् मानवजन्म प्राप्तवन्तः प्राप्तवन्तः तत्र किमपि सौभाग्यं सर्वे एतत् मानवजन्म न प्राप्तुं शक्नुवन्ति सर्वे जीवाः अतः सौभाग्य अदृष्टेन एव एतत् मानवजन्म भवति अतः वयं सौभाग्येन एव एतत् मानवजन्म प्राप्तवन्तः अत्र एतत् दृष्ट्वा लिङ्गं लिङ्गं जानीमः वा एतत् इत्युक्ते अस्ति चेत् लिङ्गं किं भवति विशेषणम् अस्ति अतः एतत् पुल्लिङ्गपदं वा पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा एतत् इति हा एषः इति पुल्लिङ्गे एषा इति स्त्रीलिङ्गे एतत् इति नपुंसकलिङ्गे अतः वयं जानीमः मानवजन्म इति नपुंसकलिङ्गपदम् अस्ति इति अस्तु अग्रे
सफलतायै प्रयत्नं कुरु
किं करणीयं कुरु इति
कुरु
लोट्लकारः
लोट्लकार मध्यमपुरुष एकवचनं
त्वं कुरु किं कुरु
प्रयत्नं कुरु
त्वं प्रयत्नं कुरु हा किमर्थं प्रयत्नं कुरु
सफलतायै
सफलतायै प्रयत्नं कुरु सफलतायै इति विभक्ति का तत्र एकवचनम् अस्तु तत्र प्रथमविभक्तिरूपं किम् अस्ति सफलतायै इति सफलता स्त्रीलिङ्गे अस्ति हा सफलतायै इदानीं तत्र पश्यामः बाणचतनी महोदय स्त्रीलिङ्गे सफलता सफलतायै इति अस्ति एकवचने द्विवचने किम् अस्ति चतुर्थीविभक्ति सफलताभ्यः समीचीनं महोदय हा अस्तु अस्तु श्रीकुमारी भगिनी हा तत्र केवलं वाक्यद्वयमेव अस्ति समापयतु भगिनि
शुभं भवतु
इति सः धनिकः
धनिकः अवदत्
अवदत्
धनात् भिक्षुकः भिक्षाटनं त्यक्त्वा नूतनजीवनम् आरब्धवान् अतः एव
प्राज्ञाः
वदन्ति तस्मात्
तत्र दिनम् इति अस्ति दिनम् इति कीदृशपदं पुल्लिङ्गपदं वा नपुंसकलिङ्गं वा दिनम्
दिनात् दिनं नपुंसकलिङ्गं
हा दिनम् इति नपुंसकलिङ्गम् अस्तु तस्मात् दिनात् पञ्चमी विभक्ति समीचीनं भगिनि हा सत्यं हा
भिक्षुकः भिक्षाटनं त्यक्त्वा भिक्षाटनं द्वितीय कर्मपदं
त्यक्त्वा
सवतु प्रत्ययः नूतनं जीवनं कीदृशजीवनं नूतनं जीवनम् आरब्धवान्
प्रारम्भं कृतवान्
अतः एव प्रज्ञाः वदन्ति
प्राज्ञाः
वदन्ति
किं वदन्ति अत्र पश्यामः तत्र बाणचित्रं महोदय तत्र अन्तिमश्लोकः एकवारं तं श्लोकं पठतु महोदय तत्र सम्यक्तया दृश्यते वा तत् श्लोकम् अस्तु अस्तु
आलस्यं हि मनुष्याणां शरीरस्थो महातिपुः नास्त्युद्यमतमो बन्धुः कृत्वा यं नावसीदति
किञ्चित् वदतु महोदय तत्र किं किम् अस्ति इति
मनुष्याणाम् आलस्यं शरीरस्थः महारिपुः हि रामाणाम् इति मनुष्यः मनुष्याणां बहुवचनं महोदय षष्टि
हा सत्यं समीचीनं महोदय हा
मनुष्याणाम् आलस्यं मनुष्यार्थम् आलस्यं यदस्ति तत् अलसकार्यं शरीरस्थः शरीरे स्थितः अन्ते स्थितः
आलस्यं शरीरस्थितः
महारिपुः
रिपुः इत्युक्ते
महान् शत्रुः
शत्रुः महान् शत्रुः तत्र किं भवति आलस्यम् एव मनुष्याणां
रिपुः
महारिपुः सः तत् आलस्यं शरीरे एव अस्ति
शरीरस्थो
महोदय आलस्यं शरीरे कथं भवति महोदय मनसि
हा किन्तु हा अत्र तादृशं दत्तमस्ति महोदय तत्र शरीरस्थो महारिपुः इति अस्ति तत्र शरीरस्थः इति भवति तत्र किं भवति शरीरस्थः इति किं भवति महारिपुः इति पदस्य विशेषणम् अस्ति तत्र तत्र वयं सर्वदा किं चिन्तयामः शत्रुः अन्यत्र अस्ति खलु स्वयं शत्रुः इति किमपि चिन्तनं न भवति खलु अतः तत्र महारिपुः शरीरस्थः महारिपुः इति
शरीरस्थितः महारिपुः
शरीरस्थः हा बहिः नास्ति अन्ते एव अस्ति शरीरस्थितः शरीरस्थः इति विशेषणं भवति महारिपुः इति पदस्य तदेव आलस्यम् इति हा अग्रे अग्रिमवाक्ये
नास्त्युद्यमसमो बन्धुः उद्यमसमः बन्धुः नास्ति
उद्यम इत्युक्ते प्रयत्नः
स्वप्रयत्न
सत्यं महोदय तत्र उद्यमसमः बन्धुः नास्ति कृत्वा यम् कृत्वा यम्
न अवसीदति
अवसीदति इति तत्र हा तत्र अधोभागे अर्थः न दत्त अर्थः न दत्तः अवसीदति इत्युक्ते
किं
तत्र किं तत्र हा तत्र अधोभागे गच्छति इति अर्थे अवसीदति इत्युक्ते तत्र न अवसीदति इति तादृश न भवति किं कृत्वा न अवसीदति
कार्यं कृत्वा
किं कृत्वा
उद्यमं कृत्वा उद्यमं कृत्वा अथवा कार्यं कृत्वा
नास्ति उद्यमसमः बन्धुः कृत्वा अस्तु कृत्वा यं न अवसीदति अस्तु महोदय उद्यम अस्तु
उद्यमं उद्यमं कृत्वा न अवसीदति
इति समीचीनम् अस्तु अतः आलस्यं मास्तु उद्यमं भवतु इति अस्तु अस्तु तर्हि
अत्र महोदय स्वावलम्बी इति अस्ति स्वावलम्बिन् इति विद्यार्थिन् विद्यार्थिन् स्त्रीलिङ्गिकः स्वावलम्बी स्वावलम्बिनी स्वावलम्बी
तत्र
उपसर्गः
स्व इति उपसर्गः अवलम्बी स्वावलम्बी
स्वावलम्बी स्वावलम्बिन्
स्वावलम्बिन् सत्यं महोदय विद्यार्थिन् इति सत्यं धन्यवादः महोदय समीचीनमस्ति सुन्दरं पदं खलु तत् अस्तु इदानीं तत्र अत्रापि किञ्चित् अभ्यासः अस्ति तत्र किं समयः अस्ति वा अस्तु तत्र अस्तु 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 तत्र तत्र अत्र यत् अस्ति तदेव कुर्मः तदनन्तरं गीतासोपानं यदि समयः अस्ति चेत् तत्र गच्छामः अस्तु कथा समीचीना आसीत् वा
बहु समीचीनम्
अस्तु उमा भगिनी समीचीनम् आसीत् वा उमा भगिनी अवगतवती वा
अवगतवती
अस्तु भगिनि अस्तु भवती एव तत्र अग्रे अभ्यासः अस्ति तम् आरम्भं करोति वा अग्रिमे पुटे
चतुर्थी रूपाणि एकवचने बहुवचने च लिखत तत् कर्तव्यं
वदतु भगिनि
उदाहरणं वृक्षाय वृक्षेभ्यः बालकः बालकाय बालकेभ्यः वृक्षाय वृक्षेभ्यः वनवनाय वनेभ्यः मालायै मालेभ्यः
मालाभ्यः तत्र वयं दृष्टवन्तः खलु तत्र किम् आसीत् तत्र सफलतायै इति आसीत् खलु सफलतायै सफलताभ्यां सफलताभ्यः मालायै मालाभ्यां मालाभ्यः इदानीं लेखनी इति
लेखनी लेखन्यै लेखनीभ्यः
लेखन्यौ लेखन्यः
लेखनीभ्यां लेखनीभ्यः
लेखनीभ्यां लेखनीभ्यः लेखन्यै.
अस्तु भगिनी, अस्तु. तत्र जननी इति अस्ति, तदपि करोति वा?
जनन्यै, जननीभ्यां, जननीभ्यः.
अग्रे
अस्मद् इति अस्मद्
कथायामासीत् खलु, मह्यं,
मह्यम् अवाभ्याम् अस्मभ्यम्.
अस्मभ्यं, समीचीनं भगिनि. युष्मद्
युष्मद् युष्मद् तुभ्यं,
युष्मभ्यं युष्मभ्यं. समीचीनं भगिनि, समीचीनम्. अस्तु, तावदेव. अस्तु, समीचीनम्. इदानीं तत्र भानचेतनी महोदय, तत्र आ इति अभ्यासः त्यजामः, तदनन्तरं तत्र कस्मै किं रोचते इति तत् पठति वा महोदय?
कस्मै किं रोचते? उदाहरणं, गणेशः मोदकं, गणेशाय मोदकं रोचते. गजः इक्षुदण्डः, गजाय इक्षुदण्डं रोचते.
इक्षुदण्डः रोचते इति
महोदय द्वितीयविभक्ति महोदय तत्र न,
किमर्थं
कर्मपदं कर्मपदं नास्ति वा?
तत्र कर्तृपदं किम् अस्ति?
तदेव तदेव इक्षुदण्डः.
तत्र कर्तृपदं किं? तत्र गजः इति कर्तृपदं नास्ति खलु महोदय? अतः वाक्यं किं भवति महोदय?
गजाय गजाय इक्षुदण्डः रोचते.
इति समीचीनं महोदय, समीचीनं. अस्तु, अग्रे सूर्य. शुगर् केन् किमर्थं न रोचते? इक्षुदण्डः शुगर् केन् इक्षुदण्डः. अस्तु, सूर्यकुमारी भगिनी अग्रे.
व्याघ्रः मांसं, व्याघ्राय मांसं रोचते.
समीचीनं. रघुपतिमहोदय.
हरिणः हरिणाय तृणं रोचते.
तृणं रोचते, समीचीनम्. उमा भगिनी, मयूरः
मयूराय कीटः रोचते.
कीटः रोचते, समीचीनं. भानुचितनी महोदय अग्रे. बल्लूकः
महोदय भल्लूकः महोदय
फनसफलम्
आम् महोदय, भल्लूकाय फनसफलं रोचते.
समीचीनं. सूर्यकुमारी भगिनी अग्रे. रोटिका, रोटिका एव प्रथमाविभक्तिरूपं. रोटिका रोचते. शुनकाय तत्र एतत् रोचते इति तादृश एव भवति, कस्मै रोचते एव भवति. तत्र कर्मपदं नास्ति तत्र. पुनः वाक्यं भगिनि. शुनकाय
शुनकाय रोटिका रोचते.
रोचते, समीचीनं. रघुपतिमहोदय.
मरीचिका रोचते शुकाय.
शुकाय मरीचिका रोचते. उमा भगिनि.
चटकाय धान्यं रोचते.
समीचीनं. भानुचेतनी महोदय.
महोदय.
वानरः
वानरः कदलीफलं, वानराय कदलीफलं रोचते.
समीचीनं. अस्तु सूर्यकुमारी भगिनी
माचारः क्षीरं माचाराय क्षीरं रोचते
हा समीचीनं रघुपति महोदय
सर्पः रोचते गरुडाय
हा सर्पः रोचते गरुडाय हा उमा भगिनी
बकाय कर्कटः रोचते
हा समीचीनं भगिनी हा अस्तु अग्रे सूर्यकुमारी भगिनी अग्रिमम् आरम्भं करोति वा
रोचते इति अकर्मक अपि अस्ति अतः कर्मपदं कदाचित्
सत्यं सत्यं महोदय
कः कस्मै किं दत्तवान्
तत्र उदाहरणं नास्ति किन्तु विश्वामित्रः रामः विद्या
विश्वामित्रः रामाय विद्यां दत्तवान्
हा समीचीनं भगिनि तत्र विद्याम् इति एव समीचीनं किमर्थं
कर्मपदं
हा विद्यां दत्तवान् विश्वामित्रः रामाय विद्यां दत्तवान् समीचीनं भगिनि अस्तु उमा भगिनि अग्रे
आञ्जनेयः सीतायै अङ्गुलीयकं दत्तवान्
हा समीचीनं भगिनि हा आञ्जनेयः सीतायै अङ्गुलीयकं दत्तवान् समीचीनं रघुपतिमहोदय
अस्तु महोदय सीता वायुपुत्राय चूडामणिं दत्तवती
हा दत्तवती समीचीनं हा बालचित्रनी महोदय अग्रे
महोदय एकलव्यः द्रोणाचार्याय अङ्गुष्ठं दत्तवान्
हा अङ्गुष्ठं दत्तवान् समीचीनं हा तत्र केवलम् एकमेव अङ्गुष्ठं दत्तवान् खलु सः हा अङ्गुष्ठौ न दत्तवान् खलु एकमेव अङ्गुष्ठं दत्तवान् हा अस्तु हा सूर्यकुमारी भगिनी अग्रे
दशरथः
कैकेयी अस्ति तत्र चतुर्थी विभक्तिरूपं किं भवति
कैकेयै
किञ्चित् क्लिष्टः अस्ति हा कैकेयै
लेखनीयं वा
किमर्थं भगिनि
कैकेयै कथं लेखनीयं यो द्विवारम् अस्ति वा
हा तत्र देव्यै इति सत्यं भगिनि हा सत्यं सत्यं हा ईकारः यकारः पूर्वमेव अस्ति तदनन्तरं नूतन यकारः आगच्छति सत्यं भगिनि न यायै इति न कैकेयै इति यकारः यकारस्य द्वित्वं समीचीनं भगिनि सत्यं हा दशरथः दत्तवान् समीचीनं हा उमा भगिनी अग्रे
कर्णः इन्द्राय कवचकुण्डलं दत्तवान्
हा कवचकुण्डलं दत्तवान् हा इन्द्राय समीचीनं हा रघुपति महोदय
शबरी रामाय फलानि दत्तवती
दत्तवती समीचीनं हा बाणचतनी महोदय
गणेशः चन्द्राय शापं शापं दत्तवान्
हा शापं दत्तवान् समीचीनं महोदय अस्तु हा इदानीम् अग्रे तत्र श्लोकमस्ति रघुपति महोदय पठति वा तत्र प्रथमश्लोकम्
अस्तु रामाय रामभद्राय रामचन्द्राय वेदसे रघुनाथाय नाथाय सीतायाः पतये नमः अस्ति अत्र रामाय रामभद्राय रामचन्द्राय इति चतुर्थी विभक्ति वेदसे अपि वेदसे तदपि चतुर्थी विभक्ति खलु रघुनाथाय नाथाय सीताय पतये सीतायाः पतये नमः सीतायाः पतये पतये नमः इति पतये अपि चतुर्थी विभक्ति
सीतायाः पतिः सीतायाः पतये नाथाय रघुनाथाय नमः नाथाय नमः सीतायाः पतये नमः रामचन्द्राय नमः रामभद्राय नमः रामाय नमः वेदस्य तत्र
इत्युक्ते
वैज् इति
वैज् इति अथवा ब्रह्म विदात्त इति
महोदय तत्र पूर्वं वयं दृष्टवन्तः खलु तत्र भवान् इति अतः तत्रापि वेदस् वेदस्य इति चतुर्थीविभक्तिरूपं भवति अत्र सर्वत्र केवलं नमः इति तत्र यत्र नमः अस्ति तत्र सर्वत्र चतुर्थीविभक्तिरूपं रामाय नमः महोदय तत्र पतिः पतये इति एव अस्ति तत्र अस्तु अस्तु प्रायशः न तत्र पते
हरये एव अस्ति
मतिशब्दवत् नास्ति तत् स्त्रीलिङ्गे नास्ति खलु पुल्लिङ्गे अस्ति
स्त्रीलिङ्गे नास्ति
पुल्लिङ्गे एव अस्ति किन्तु पति हरि कविशब्दवत् नास्ति तत्र किञ्चित् भेदः अस्ति पति इति किञ्चित्
अस्ति तत्र अहं आप्टे मध्ये अस्ति पतिः यः पाति रक्षति पा इति पति इति तदस्ते त्रिलिङ्गः भवति स्वामी प्रभु त्रिलिङ्गः अस्ति अतः पतये इति निजन्तरूपम् अस्ति अस्ति दत्तमस्ति
किन्तु पतिः अत्र पतिः तु
आमां महोदय पति 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 कवये अस्तु
किन्तु किन्तु तत् कविवत् नास्ति इति मन्ये एकवारं
प्रयोगः किमपि अस्ति
किन्तु किन्तु तत् चतुर्थीविभक्तौ प्रायशः कविवत् अस्ति किन्तु प्रथमविभक्तिरूपं किञ्चित् भिन्नः अस्ति इति मन्ये द्रष्टव्यमस्ति हा रूपं किञ्चित् भिन्नम् अस्ति इति मन्ये किन्तु किन्तु द्रष्टव्यं हा किन्तु तत्र सर्वत्र चतुर्थीविभक्तिरूपं हा
इकारान्त पुल्लिङ्गः एव तत्र दृश्यते पतिः पति पतयः पतिं पति पति पत्या पतिभ्यां पतिभिः पत्यै
शब्दमञ्जर्याम् एतद् अस्ति वा कुत्र शब्दमञ्जर्यां वा
तत्र महोदय अहं कुत्रापि पठितवान् किञ्चित् तत्र पतये इति विशेष अस्ति इति पत्ये एव भवति परन्तु पतये इति किमपि अहं न स्मरामि सम्यक् किमर्थं तत्र पतये इति दत्तमस्ति इति
अग्रिमवर्गे चर्चां कुर्मः अस्तु समीचीनमेव
आशप्रयोग एक तत्र भवति आशप्रयोग तत्र
अस्तु 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 अग्रिमवर्गे तत् पश्यामः किम् अस्ति इति अस्तु अग्रे तत्र उमा भगिनी अग्रिमं पठति वा
सेकेण्ड् वन् कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः ओके कृष्णाय वासुदेवाय
देवकीनन्दनाय तत्र प्रथमविभक्तिरूपं वदतु कृष्णाय प्रथमविभक्तिरूपं किम् अस्ति
कृष्णः वासुदेवः देवकीनन्दनः नन्दगोपकुमारः गोविन्दः
गोविन्दः सर्वत्र अकारान्तपुल्लिङ्गपदम्
अकारान्तपुल्लिङ्गरूपम्
अतः कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः अस्तु समीचीनं भगिनि अस्तु अग्रे सूर्यकुमारी भगिनी
हाँ महोदय नागेन्द्रहाराय त्रिलोचनाय भस्मांगरागाय महेश्वराय नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय
नमः शिवाय। तत्र प्रथमविभक्तिरूपम् एकवारं वदतु। तत्र
नागेन्द्रहारः त्रिलोचनः भस्मांगरागः महेश्वरः नित्यः शुद्धः दिगम्बरः
नकारः तस्मैति सः भवति। तस्मै इत्युक्ते सः शिवः। हा तत्र किं तत्र एतद् आलोचनमपि भवति खलु। तत्र नमः शिवाय तत्र कीदृशः शिवः इत्युक्ते नागेन्द्रहारः शिवः नागेन्द्रहाराय शिवाय नमः अथवा त्रिलोचनः शिवः त्रिलोचनाय शिवाय नमः तादृश एव तत्र विशेषणविशेषभावः अस्ति खलु। तत्र तादृशमेव तत्र किं कृष्णः कीदृशकृष्णः वासुदेवः कृष्णः वासुदेवाय कृष्णाय नमो नमः देवकीनन्दनः कृष्णः देवकीनन्दनाय वासुदेवाय कृष्णाय नमो नमः इति तत्र विशेषणस्य हारः भवति। तादृश एव रामः रामः रामाय नमः रामभद्रः रामः रामभद्राय रामाय नमः तादृश रामचन्द्रः रामभद्रः रामः तत्र रामचन्द्राय रामभद्राय रामाय नमः इति तत्र विशेषणविशेषभावः अस्ति। अतः एकस्य चतुर्थीविभक्तिरूपं परिवर्तनं भवति चेत् अन्यस्य अपि तादृशमेव भवति इति। अस्तु तर्हि तत्र श्लोकं पठितवन्तः तत्र समीचीन समयः इति मन्ये। तत्र समयः अपि जातः। अस्तु तर्हि अग्रिमवर्गे तत्र गीतासोपाने पुनः गीतासोपनं पुनः गत्वा तत्र चतुर्थीविभक्तिविषये यत् अस्ति तत् समापयित्वा अग्रे तत्रापि कथा अस्ति अव्ययविषये कथा अस्ति तां पठामः अग्रिमवर्गे। अस्तु तर्हि अन्यप्रश्नः अस्ति वा
न महोदय? धन्यवादः। अस्तु
अस्तु धन्यवादः सर्वेभ्यो नमः। अग्रिमवर्गे मिलामः। नमस्ते शुभरात्रिः। नमस्कारः।
नमस्ते महोदय बहवः धन्यवादः।
अस्तु महोदय न भवान् पृष्टवान् समीचीना कथा अपि आगता अतः अहं प्रेषितवान्। अस्तु महोदय नमस्कारः महोदय।
धन्यवादः।
भगिनी एकनिमिषः भगिनी।